अथ जितन्ते स्तोत्रे प्रथमोऽध्यायः।
ब्रह्मोवाच जितन्ते पुण्डरीकाक्ष पूर्णषाड्गुण्यविग्रह परानन्दपरब्रह्मन् नमस्ते चतुरात्मने नमस्ते पीतवसन नमः कटकहारिणे नमो नीलालकाबद्ध वेणी सुंदर पुंगव स्फुरद्वलय केयूर नूपुरांगद भूषणैः शोभनैर्भूषिताकार कल्याण गुणराशये करुणापूर्ण हृदय शंख चक्र गदाधर अमृतानंद पूर्णाभ्याम लोचनाभ्याम विलोकय कृशं कृतघ्नं दुष्कर्मकारिणं पापभाजनं अपराधसहस्राणां माकरं करुणाकर कृपया मां केवलया ग्रहाण मथुराधिप विषयार्णवमग्नं मां उद्धर्तुं त्वमिहार्हसि। पिता माता सुहृद्बन्धुर्भ्राता पुत्रस्त्वमेव मे विद्याधनं च कामश्च नान्यत् किञ्चित् त्वया विना यत्र कुत्र स्थले वासो येषु केषु भवोऽस्तु मे तव दास्यैकभावे स्यात् सदा सर्वत्र मे रतिः। मनसा कर्मणा वाचा शिरसा वा कथञ्चन त्वां विना नान्यमुद्दिश्य करिष्ये किञ्चिदप्यहम्। पाहि पाहि जगन्नाथ कृपया भक्तवत्सल
अनाथोऽहमधन्योऽहमकृतार्थो ह्यकिञ्चनः
नृशंसः पापकृत्क्रूरो वञ्चको निष्ठुरः सदा भवार्णवे निमग्नं मामनन्यकरुणो दधे करुणापूर्णदृष्टिभ्यां दीनं मामवलोकय त्वदग्रे पतितं त्यक्तुं तावकं नार्हसि प्रभो मया कृतानि पापानि विविधानि पुनः पुनः।
त्वत्पादपङ्कजं प्राप्तुं नान्यत्त्वत्करुणां विना साधनानि प्रसिद्धानि यागादीन्यब्जलोचन त्वदाज्ञया प्रवृत्तानि त्वामुद्दिश्य कृतानि वै भक्त्यैकलभ्यः पुरुषोत्तमो हि जगत्प्रसूतिस्थितिनाशहेतुः। अकिञ्चनं नान्यगतिं शरण्य ग्रहाण मां क्लेशिनमम्बुजाक्ष।
धर्मार्थकाममोक्षेषु नेच्छा मम कदाचन त्वत्पादपङ्कजस्याधो जीवितं मम दीयताम्। कामये तावकत्वेन परिचर्या सुवर्तनम् नित्यं किङ्करभावेन परिगृह्णीष्व मां विभो।
लोकं वैकुण्ठनामानं दिव्यं षाड्गुण्यसंयुतम्
अवैष्णवानामप्राप्यं गुणत्रयविवर्जितम् नित्यं सिद्धैः समाकीर्णं त्वन्मयैः पाञ्चकालिकैः सभाप्रासादसंयुक्तं वनैश्चोपवनैः शुभैः वापीकूपतटाकैश्च वृक्षषण्डैश्च मण्डितम् अप्राकृतं सुरैर्वन्द्यमयुतार्कसमप्रभम् प्रकृष्टसत्त्वराशिं त्वां कदा द्रक्ष्यामि चक्षुषा क्रीडन्तं रमया सार्धं लीलाभूमिषु केशवम् मेघश्यामं विशालाक्षं कदा द्रक्ष्यामि चक्षुषा उन्नसं चारुदशनं बिम्बोष्ठं शोभनाननं विशालवक्षसं श्रीशं कम्बुग्रीवं जगद्गुरुम्।
आजानुबाहुपरिघमुन्नतां सं मधुद्विषम् तनूदरं निम्ननाभिमापेन जघनं हरिम्
करभोरुं श्रियःकान्तं कदा द्रक्ष्यामि चक्षुषा शङ्खचक्रगदा पद्मैरङ्कितं पादपङ्कजम् शरच्चन्द्रशताक्रान्तनखराजिविराजितम्
सुरासुरैर्वन्द्यमानं ऋषिभिर्वन्दितं सदा
मूर्धानं मामकं देवतावकं मण्डयिष्यति कदा गम्भीरया वाचा श्रिया युक्तो जगत्पतिः चामरव्यग्रहस्तं मामेवं कुर्विति वक्ष्यति कदाहं राजराजेन गणनाथेन चोदितः चरेयं भगवत्पादपरिचर्या सुवर्तनम् शान्ताय सुविशुद्धाय तेजसे परमात्मने नमः सर्वगुणातीत षाड्गुण्यायादिवेधसे सत्यज्ञानानन्तगुणब्रह्मणे चतुरात्मने नमो भगवते तुभ्यं वासुदेवामितद्युते चतुःपञ्चनवव्यूहदशद्वादशमूर्तये नमो नन्ताय विश्वाय विश्वातीताय चक्रिणे नमस्ते पञ्चकालग्न पञ्चकालपरायण पञ्चकालैकमनसां त्वमेव गतिरव्ययः स्वमहिम्निस्थितं देवं निरनिष्टं निरञ्जनम् अप्रमेयमजं विष्णुं शरणं त्वां गतोऽस्म्यहम् वागतीतं परं शान्तं कञ्जनाभं सुरेश्वरम् तुरीयाद्यतिरिक्तं त्वां कौस्तुभोद्भासि वक्षसम् विश्वरूपं विशालाक्षं कदा द्रक्ष्यामि चक्षुषा मोक्षं सालोक्यसारूप्यं प्रार्थयेन कदाचन इच्छाम्यहं महाभागकारुण्यं तव सुव्रत सकलावरणातीत किङ्करोऽस्मि तवानघ पुनः पुनः किङ्करोऽस्मि तवाहं पुरुषोत्तम आसनाद्यनुयागान्तमर्चनं यन्मया कृतम् भोगहीनं क्रियाहीनं मन्त्रहीनमभक्तिकम् तत्सर्वं क्षम्यतां देवदीनं मामात्मसात्कुरु इति स्तोत्रेण देवेशं स्तुत्वा मधुनिघातिनम् यागावसानसमये देवदेवस्य चक्रिणः नित्यं किङ्करभावेन स्वात्मानं विनिवेदयेत् इति जितन्ते स्तोत्रे प्रथमोऽध्यायः।